नमस्काराः. अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे चतुर्दशः पाठः. फेब्रुवरी मासस्य सप्तविंशः दिनाङ्कः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते. भूषणसारस्य धात्वर्थप्रकरणे काश्चन कारिकाः अस्माभिः अधीताः. तत्र फलव्यापारयोर्धातुः आश्रयेत तिङस्मृताः. फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम् इति प्रथमा कारिका, यत्र विस्तृतः विचारः कृतः कौण्डभट्टेन. धातुः फलस्य व्यापारस्य च वाचकः, तिङः फलव्यापारयोराश्रयाणां वाचकाः. अर्थात् फलाश्रयस्य कर्मणः व्यापाराश्रयस्य च कर्तुः वाचकाः तिङ् प्रत्ययाः. तत्र फले व्यापारः प्रधानम्, फलनिरूपितं प्राधान्यं व्यापारे विद्यते. तिङर्थाः कर्तृकर्मसङ्ख्याकालाः विशेषणीभूताः. तिङर्थः कर्ता, धात्वर्थव्यापारस्य विशेषणं. तिङर्थः कर्म, धात्वर्थफले विशेषणं. तिङर्थसङ्ख्या, तिङर्थकर्तरि, तिङर्थकर्मणि वा विशेषणं. तिङर्थकालः, धात्वर्थव्यापारे विशेषणम् इत्येवं परस्पर सम्बन्धं निरूप्य व्यापारमुख्यविशेषकः शाब्दबोधः वैयाकरणसिद्धान्तः इति प्रथमकारिकया प्रतिपादितम्. तत्र कथं तिङाम् आश्रयवाचकत्वं, कर्तृकर्मणि तिङर्थः इत्यंशः कारिकायाम् अनुक्तोऽपि कौण्डभट्टेन सम्यक् विचारितः. एवमेव तिङर्थसङ्ख्यायाः कुत्र विशेषणम्, अर्थात् प्रथमान्तपदार्थे कर्तरि विशेषणं प्रतिपादयतां नैयायिकानां मतं निराकृतम्. एवञ्च तिङर्थकालस्य व्यापारविशेषणत्वमपि प्रतिपादितम्. ततः फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः, व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम्. कर्ता कर्म इत्युभयमपि तिङ्प्रत्ययेन उच्यते इत्युक्तम्. तत्र कुत्र कर्ता उच्यते, कुत्र च कर्मवाचकत्वम् इति प्रश्ने तङ् यक् चिन् इत्येता न केवलमेते एतादृशाः ये कर्मार्थे विशिष्य सूत्रेण विहिताः, यथा भावकर्मणोः इति आत्मनेपदम्, चिन्भावकर्मणोः सार्वधातुके यक् इत्येते सर्वेपि फलव्यापारयोः मध्ये फले आश्रयान्वयं द्योतयन्ति. एते द्योतकाः न तु वाचकाः, कर्मद्योतकाः. यगादयः कर्मद्योतकाः. एवं शमादयः शप्ष्णम् श्ना इत्यादयः विकरणप्रत्ययाः कर्तरि विशिष्यविहितत्वात् कर्तृद्योतकाः इति औत्सर्गिकः नियमः उक्तः. उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम्. एषः तु केवलम् औत्सर्गिकः नियमः, न तु सार्वत्रिकः. यतोहि कर्मकर्तृविषयादौ यत्र कर्मकर्तरिप्रयोगः, कर्मवत्कर्मणात्तुल्यक्रियः इत्यनेन कर्मणः कर्तृत्वेन विवक्षायां कर्मस्थक्रियाणां कर्मवद्भावः विधीयते. यथा पच्यते ओदनस्वयमेव, भिद्यते काष्ठं स्वयमेव इत्यादिषु. तत्र कर्तरि कर्तृवाचकत्वेऽपि, तिङां कर्तृवाचकत्वेऽपि कर्मवद्भावेन यक् चिण् इत्यादयः श्रूयन्ते. अतः औत्सर्गिकतया ते कर्मद्योतकाश्चेदपि तादृशस्थलेषु कर्तृद्योतका एव भवन्ति. एवमेव क्रमादमुं नारदैत्यबोधिसः इति कर्तरि चिण् अपि दृश्यते. दीपजनबुध इति विशेषविहितत्वात् कर्तरि चिण् विधीयते. अतः तत्रापि अयं नियमः न पालितः. अतः உற்சர்கோயம் கர்மகர்த்த விஷயாதோ விபர்யாத் யதோசிதம் யதாகமம் தியோதகத்வம் ஞேயம் பிரசங்கம் அனுசிருத்ய சாஸ்திரஞ்ச அனுசிருத்ய தியோதகத்வம் ஞேயம் இதி வாக்கியார்த்தஹ உக்தஹ. புனஷ்ச இதானீம் வியாபாரஹ ஃபலவியாபாரௌ தாத்வர்த்தஹ இதி பிரதிஜ்ஞாதம் ஆதாவேவ தத்ர வியாபாரஸ்ய வாசகத்வம் கதம் இதி பிரஷ்னே இயம் காரிகா உச்யதே வியாபாரோ பாவனா சைவோத்பாதனா சைவ சக்ரியா கிருணியோ கர்மகதாபத்தேர் நஹி யத்னோர்த்தயிஷ்யதே இதி காரிகா. வியாபாரஹ பாவனா சைவ உத்பாதனா சைவ சக்ரியா இதி பிரதமார்த்தஹ. புண்ணியஹ அகர்மகதாபத்தேஹ நஹி யத்னஹ அர்த்தஹ இஷ்யதே இதி த்விதீயார்த்தஹ. தத்ர பிரதமார்த்தஹ அஸ்மாபிஹ அதீயமானஹ அஸ்தி. தத்ர அஸ்யாம் காரிகாயாம் மதத்வயஸ்ய நிராகரணம் க்ரியதே பட்டோஜி தீக்ஷிதைஹ. மீமாம்சகேஷு பிராபாகராணாம் மதம் லடாத்யந்தே பாவனா அவாச்யா. யத்ர லிங் லிங்கர்த்தஹ வித்யதே தத்ரைவ பாவனாயாஹ வாச்யத்வம் தத்ராபி திங் வாச்சியத்துவமேவ அர்த்தாத் ஆக்யாதார்த்தஹ பாவனா இத்தேவ ததபி லிங்லகாரே ஏவ லடாதிஷு லகாரேஷு பாவனா சர்வதாபி அவாச்யா பிரகிருத்யாவா பிரத்யயேனவா பாவனா அவாச்யா இதி கேஷாஞ்சன மதம். ததைவ நைய்யாயிகானாம் மதம் லாகவாத் கிருதேரேவ வாச்சியத்துவம் நது வியாபாரஸ்ய புத்காராதீனாம் வியாபாராணாம் வாசகத்துவம் நாஸ்தி தத்தத்ரூபேண சக்யதாவச்சேதகத்வ ஸ்வீகாரே கௌரவாத் லாகவாத் கிருதித்வமேவ சக்யதாவச்சேதகம் இதி ஸ்வீகரணீயம் இதி நைய்யாயிகாஹ. ஏதன்மதத்வயமபி அதுனா நிராக்ரியதே பாவனா வாச்யைவ சாச பாவனா தாது வாச்ய ந திங் வாச்ய இதி த்வயமபி சாதயிதும் ப்ரவ்ருத்தாஹ பட்டோஜி தீக்ஷிதாஹ. தத்ர பிரதமாத்யேன உச்யதே வியாபாரோ பாவனா சைவோத்பாதனா சைவ சக்ரியா. வியாபாரஹ பாவனா உத்பாதனா க்ரியா இதி ஏதா சர்வாஹ அதவா ஏதே சர்வேபி சப்தாஹ சமானார்த்தகாஹ. அதஹ சர்வவிதோபி வியாபாரஹ ஆத்மநிஷ்டஹ க்ருதிரூபஹ ஷரீரநிஷ்டஹ புத்காராதி ரூபஹ இதி சர்வோபி வியாபாரஹ வாச்ய ஏவ இத்யுச்யதே. அபி ச அத்ர பிரத்யேகம் பதார்த்தஸ்ய யஹ சூக்ஷ்மஹ பேதஹ ததபி ப்ரதர்ஷிதஹ க்ரியதே க்ரமிகோத்பத்யா அவயவானாம் இதி க்ரியா ஏவம் உத்பாத்யதே இதி உத்பாதனா இதி சப்தஹ பாவனா பவிதுஹ பவனானுகூலா பாவனா இத்யேவம் சர்வோபி அம்சஹ அனேன சாதிதா. அதேவ கௌண்டபட்டேன பூர்வமேவ பிரதம காரிகாயாமேவ உக்தம் வியாபாரஸ்து பாவனாபிதா சாத்தியத்வேன அபிதீயமானா உத்பாத்யதே இத்யனேன சாத்தியத்வம் கம்யதே சாத்தியத்வேன அபிதீயமானா க்ரியா இதி. அபி ச ஏவம் விவரண தர்சனாத் பசதி இத்யஸ்ய பாகானுகூலா பாவனா பாகானுகூலா உத்பாதனா பாகானுகூலா க்ரியா இத்யாதி விவரண தர்சனாத் ஏதே சர்வேபி வியாபாராஹ வாச்யாஹ ஏவ இதி அனயா காரிகையா உச்யதே. அபி ச நைய்யாயிகானாம் லாகவாத் க்ருதேரேவ வாச்யத்வம் ஸ்வீகரணீயம் நது வியாபாரஸ்ய இதி யோ வாதஹ தத்ராபி தோஷ பிரதர்சனம் க்ரியதே. யத்யபி க்ருதித்வஸ்யைவ வாச்யத்வம் ஸ்வீக்ரியதே க்ருதேரேவ வாச்யத்வம் ததாபி ரதோ கச்சதி இத்யாதிஷு பிரயோகேஷு தோஷஹ பவதி யதோஹி அசேதனஹ ரதஹ தஸ்மின் நாஸ்தி க்ருதிஹ ததா சதி கதம் சாப்த போதஹ இதி சேத் தத்ர நைய்யாயிகைருச்யதே தத்ர வியாபாரே லக்ஷணா ஆஶ்ரியதே ஏவஞ்ச ஜானாதி இத்யாதிஷு கதம் இதி சேத் தத்ர து ஆஶ்ரயே லக்ஷணா ஆஶ்ரயத்வே லக்ஷணா இத்யேவம் லக்ஷ்யதாவச்சேதகானாம் குருத்வம் அங்கீக்ரியதே நைய்யாயிகைஹ. தத்ர வைய்யாகரணானாம் வாதஹ சக்திர்வா பவது லக்ஷணா வா பவது உபயமபி பதபதார்த்த சம்பந்த ரூபம் தத்ர சக்யதாவச்சேதகம் குருபூதம் ந பவேத் லக்ஷ்யதாவச்சேதகம் து குருபூதம் பவிதும் அர்ஹதி இத்யேவம் வைஷம்யே கிமபி பிரமாணம் நாஸ்தி. அதஹ சக்யதாவச்சேதகம் வியாபாரத்வமேவ சக்யதாவச்சேதகம் தத்தத்ரூபேண सर्वेपि अवान्तरव्यापाराः प्रतीयन्ते इति स्वीकरणीयम् इति वैयाकरणानां सिद्धान्तः. अपि च वैयानैयायिकैः अपरमुच्यते, पचति इत्यस्य पाकं करोति इति यत्नार्थक करोतिना विवरणं दीयते. प्लीज एक्स्क्यूज मी फॉर जस्ट वन मोमेंट, आई विल बी बैक. यत्नार्थक करोतिना विवरणदर्शनात् यत्नः नाम कृतिरेव अख्यातार्थः इति स्वीकरणीयम् इति नैयायिकानां मतम्. किन्तु कृण्यः यत्नार्थकत्वे अपि प्रमाणं नास्ति, यतोहि रथः गमनं करोति, बीजम् अङ्कुरं करोति इति अचेतनेष्वपि वस्तुषु कृण्यः प्रयोगः दृश्यते एव. अतः कृण्यः केवलयत्नार्थकत्वे, यत्नशब्देन अत्र कृतिः उच्यते, तदर्थकत्वे मानाभावात् सर्वविधोऽपि व्यापारः वाच्य एव इति उच्यते वैयाकरणैः. किञ्च भावनायाः अवाच्यत्वे कर्मत्वं दुर्वचम्. यदि मीमांसकमतानुगुणं भावना अवाच्या लडादिषु इत्युच्यते तर्हि कर्मत्वं दुर्वचम्. कर्म नाम किम् इति निर्वक्तुमेव न शक्यते. किमर्थम्? धात्वर्थफलाश्रयत्वस्य तत्त्वे घटं भावयति इत्यत्र इव घटो भवति इत्यत्रापि द्वितीया स्यात् इत्यापत्तिः. यदि मीमांसकमतानुसारेण भावना अवाच्य, लडादिषु भावनायाः वाच्यत्वमेव नास्ति, तर्हि कर्मत्वं नाम किम् इति वक्तुं न शक्यते. यदि धात्वर्थफलाश्रयत्वं कर्मत्वम् इति तैः उच्यते, धात्वर्थः फलमात्रं तदाश्रयत्वं कर्मत्वम् इति यदि उच्यते तर्हि किं भवति? घटं भावयति इति प्रयोगः निजन्तः, घटः भवति, घटं भावयति इति निजन्तप्रयोगः. तत्र धात्वर्थः फलं नाम उत्पत्तिः, भूधात्वर्थः उत्पत्तिः, उत्पत्त्याश्रयत्वेन घटस्य कर्मत्वम् अस्ति. कुम्भकारः घटं भावयति. घटो भवति इत्यत्रापि भूधातोरर्थः उत्पत्तिः, तदाश्रयत्वेन घटः कर्म. अतः यथा घटं भावयति इत्यत्र घटस्य कर्मत्वात् द्वितीया विभक्तिः, एवं घटो भवति इत्यत्रापि द्वितीया विभक्तिरेव स्यात्, न तु प्रथमा विभक्तिः इत्यापत्तिं दर्शयति. वस्तुतः कथम् अत्र निर्वाहः अस्मन्मते इति चेत्, अर्थात् वैयाकरणमते, घटो भवति इत्यत्र घटस्य कर्तुरीप्सिततमं कर्म इति कर्मत्वं यद्यस्ति तर्हि तथापि स्वतन्त्रः कर्ता इत्यनेन कर्तृत्वं भवति, अतः परया कर्तृसंज्ञया कर्मसंज्ञा बाध्यते इति वक्तव्यम्. यद्यपि उत्पत्तिः धात्वर्थः, उत्पत्तिरूपं फलं धात्वर्थः इति स्वीक्रियते, तदा फलाश्रयत्वेन कर्मत्वे सत्यपि स्वतन्त्रः कर्ता इत्यनेन कर्तृत्वमपि भवति. तत्र कर्तृसंज्ञाविधायकं परसूत्रं स्वतन्त्रः कर्ता इति 1455, whereas karma is 1449. एवञ्च परत्वात् परया कर्तृसंज्ञया कर्मसंज्ञा बाध्यते, तथा च कर्तृसंज्ञा एव भवति न तु कर्मसंज्ञा इति सिद्धान्तः, वैयाकरणसिद्धान्ते एवं वक्तुं शक्यते. किन्तु तत्र किं निर्णायकं? स्वातन्त्र्यं नाम किम् इत्येव प्रश्नः. स्वतन्त्रः कर्ता इत्युच्यते, स्वातन्त्र्यं नाम किम्? वैयाकरणमते स्वातन्त्र्यं नाम धात्वर्थव्यापाराश्रयत्वम्. धात्वर्थः यः व्यापारः तदाश्रयत्वं कर्तृत्वम् अथवा स्वातन्त्र्यं, तदेव च कर्तृत्वम् इति वैयाकरणैरङ्गीक्रियते. अत एव वस्तुतः स्वतन्त्रः कर्ता इत्यनेन स्वातन्त्र्यं, वस्तुतः स्वातन्त्र्यस्य अभावे अपि, यथा स्थाली पचति और् असिष्ठिनति, एतादृशेषु वस्तुतः स्वातन्त्र्यं नास्त्येव. स्थाल्याः वा असेः वा स्वातन्त्र्यं नास्ति, they cannot independently carry out any kriya. Sthali, a vessel, cannot on its own undertake a cooking action, nor can a sword cut by itself. Tathungi kriyate tathapi katham tasya kartrutvam sadhyate vayyakaranaihi dhatvartha vyaparashrayatvam sthalyaha yaha vyaparaha sayeva pradhanaha dhatvarthaha iti vivaksha. So that is how we do vivakshatah karakani bhavanti. So the vivaksha there, the focus there is on the vyapara of the sthali, which itself is intended as the vyapara of the dhatu. Tadashrayatvat kartrutvam ityuchyate natu vastutah svatantryana. So we define the vayakarana siddhante svatantryam nama dhatvartha vyaparashrayatvam eva. Ataha tadashritam kartrutvam bhavati sarvasyapi evam ghato bhavati. Even though a pot cannot come into existence, spring into existence on its own, it is still karta because the vyapara of the ghata is vivakshita as the dhatvartha vyapara. Mimamsakamate idanim katham bhavati. Mimamsakamate yadi bhavana avachya tarhi kartrutvam katham bhavati iti prashnaha. Kartrutvam namakim iti taihi vaktavyam. Kritya-shrayatvasya karaka-chakra-prayoktatvasya va ghatadavabhavat dhatvartha-anukula-vyapara-shrayatvasya cha karaka-matra-ativyapakatvat. See, the one definition which defines karta is the dhatvartha-vyapara-shrayatvam. So there are alternate definitions for kartratva. Okay. So, for example, kritya-shrayatvam kartratvam ityuchyate kritihi nama yatnaha tadashrayatvam kartrutvam iti lakshanam kaishchid uchyate. Kintu tathasati achetane ghate krityashrayatvam nasti. Since ghata is achetana, it is not the ashraya for kriti. And therefore, it still cannot get kartrasamya. So, unless you have kartrasamya, you cannot overrule the karma samya. Right? So, ghato bhavati ityatrapi dvitiyapattihi iti uktam. Dvitiyapattihi durvara kimartham anugata kartrutvam. They should tell what is kartrutva. Right? So, anugata kartrutvasya tvanmate durvasatvena. Since you cannot define you, meaning you, the vadi, which is the mimamsaka. So, nacha atra ghatasya kartrutvena tatsamyaya karmasamyayaha badhat nadvitiya iti vachyam. Tat vayakaranai ruchyate tadeva. Ghatasya kartrutvena kartrasamyaya karmasamyayaha badhat dvitiya na bhavati iti uchyate. Anugata kartrutvasya tvanmate durvasatvena. But to tell this, you have to define kartrutva in svatantra karta. What is the karta which is intended? Okay. Tvanmate nama mimamsakamate durvasatvena. Asmakam mate dhatvartha vyaparashrayatvam kartrutvam ityuchyate. Mimamsakamate katham kartrutvam uchyate. Ghatasya kartrutvam katham sadhyate. Krityashrayatvasya kartrutve. Yadi krityashrayatvam kartrutvam ityuchyate. Tarhi achetane ghate krityashrayatvam nasti. Ataha tatra dvitiyapattihi tathaiva tishthati. Anyadekam lakshanam asti karaka chakra prayoktrutvam kartrutvam. Okay. Karaka chakra pravartakaha karta ityuchyate. He who makes all the other karakas act, karaka chakra. Okay, so there are different karakas. You have the karana, adhikarana, apadana, sampradana, etc. He who brings together all the karakas and makes them act, karaka chakra pravartakatvam athava prayoktatvam kartrutvam ityuchyate. Ghatetu tadapinasti. Ghataha anyani karakani na prayojayati. A ghata cannot act on other karakas to make to bring about the kriya of bhavati. Ataha krityashrayatvam ghate nasti, karaka chakra prayoktatvam api nasti. There is one more possible definition. Dhatvarthanukula vyaparashrayatvam. Dhatvarthaha phalam tadanukulaha yaha vyaparaha tadashrayatvam kartrutvam iti vadamaha. The previous case was dhatvartha vyaparashrayatvam kartrutvam. Vayakaranamate dhatvartha yaha vyaparaha तदाश्रयत्वं कर्तृत्वम् इत्युक्तम्। एते वदन्ति धात्वर्थ अनुकूल व्यापाराश्रयत्वं, धात्वर्थः नाम फलम्, फलानुकूलः यः व्यापारः तदाश्रयः कर्ता इति लक्षणं यदि उच्यते। यदि धात्वर्थानुकूल व्यापाराश्रयत्वं कर्तृत्वं कारकमात्र अतिव्यापकत्वात्, सर्वाणि कारकाणि एतादृशानि, आल् द कारकास् आर् दोस् विच् हेल्प् द निष्पत्ति आफ् फल, दट् इस् अ कारक, करोति इति कारकम्। सो आल् कारकास् आर् दोस् विच् डिरेक्ट्लि आर् इण्डैरेक्ट्लि हेल्प् आर् अनुकूल फार् धात्वर्थ विच् इस् फल निष्पत्ति। अतः धात्वर्थानुकूल व्यापाराश्रयत्वं सर्वेषु कारकेषु विद्यते, अतः सर्वेषां कारकाणां कर्तृत्वं स्यात्, तत्तु नेष्यते। अतः अनुगत कर्तृत्वस्य दुर्वचत्वात् विथौट् भावना बीयिङ्ग् वाच्य यु केनाट् डिफैन् कर्तृत्व, विथौट् कर्तृत्व यु केनाट् डिफैन् कर्मत्व। ओके, दट् इस् द आर्ग्युमेण्ट्। सो विल् गो बेक् एण्ड् रीड् द मूलाम्। किञ्च भावनायाः अवाच्यत्वे कर्मत्वं दुर्वचम्, धात्वर्थफलाश्रयत्वस्य तत्त्वे, अर्थात् धात्वर्थफलाश्रयः कर्म, धात्वर्थफलाश्रयत्वं कर्मत्वम् इत्युक्ते घटं भावयति इत्यत्र इव घटो भवति इत्यत्रापि द्वितीया स्यात्। यु केन् डिफैन् कर्म, बट् वाट् हेपन्स् दट् कर्म विल् आल्सो अप्लै फार् केसेस् लैक् घटो भवति। न च अत्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञायाः बाधात् न द्वितीया इति वाच्यम्। अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्य अकर्तृत्वात्, सो यु केनाट् डिफैन् द कर्तृत्व अकार्डिङ्ग्लि। वै कृत्याश्रयस्य, कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य वा घटादौ अभावात्। सो घटादौ अचेतनेषु वस्तुषु, दट् इस् वै हि टेक्स् एन् एक्साम्पल् आफ् of an achetana karta. Okay, in chetana karta, if the karta is chetana, say for example chaitraha bhavati or chaitraha gachati, you can use one of these. You can say krityashrayatvam kartratvam or karaka chakra prayoktratvam kartratvam. Chetaneshu kartrishu etani lakshanani sangachante, kintu achetaneshu kartrishu ghatadishu na sangachante. Krityashrayatvasya कारकचक्र प्रयोक्तृत्वस्य वा घटादाव अभावात् धात्वर्थानुकूल व्यापाराश्रयत्वस्य च कारकमात्र अतिव्यापकत्वात्, कारकमात्र मीन्स् सर्वेषु कारकेषु, सो इन् आल् कारकास् इट् इस् दिस् लक्षण, धात्वर्थानुकूल व्यापाराश्रयत्व अप्लैस् टु आल् कारकास् एण्ड् नाट् जस्ट् कर्ता, विच् मीन्स् यु वुड् बि डिफैनिङ्ग् आल् कारकास् एस् कर्ता, विच् इस् आब्वियस्लि नाट् इण्टेण्डेड्। अत्र प्रश्नः, सारी आई मिस्ड्, अनुगतकर्तृत्वम् इन् द प्रीवियस् केस्, सो अनुगतं शास्त्रानुगतं कर्तृत्वम्, इफ् यु आर् गोयिङ्ग् बै द शास्त्र सेयिङ्ग् कर्तृत्वेन कर्तृसंज्ञया कर्मसंज्ञायाः बाधात्, परया कर्तृसंज्ञया कर्मसंज्ञा बाध्यते इति वक्तव्यम्, तर्हि शास्त्रानुगुणं कर्तृत्वम् अथवा स्वातन्त्र्यं नाम किं, कर्मत्वं नाम किम् इति वक्तव्यम्। कर्मत्वं नाम धात्वर्थफलाश्रयत्वं कर्मत्वम् इत्युक्तम्, स्वातन्त्र्यं नाम किम् इति वक्तव्यं शास्त्रानुगुणं, तदनुगतकर्तृत्वं शास्त्रानुगतकर्तृत्वं। सो स्वतन्त्र शास्त्रस्य स्वतन्त्रः कर्ता, वाट् इस् स्वातन्त्र्य, इस् इट् कृत्याश्रयत्वं स्वातन्त्र्यम् आर् कारकचक्रप्रवर्तकत्वं कर्तृत्वम्? सो दोस् डेफिनेशन्स् विल् नाट् होल्ड् गुड्। ओके, अतः भावनायाः अवाच्यत्वे कर्मत्वं दुर्वचम्, यु केनाट् डिफैन् द कर्मत्व आर् कर्तृत्व। अपि च भावनायाः अवाच्यत्वे धातूनां सकर्मकत्व अकर्मकत्व विभागः उच्छिन्नः स्यात्। Also, if bhavana is avachya, if vyapara is not vachya, then the division of dhatus into sakarmaka and akarmaka will be lost. Sakarmakatva akarmakatva vibhagaha uchinnaha syat, uchinnaha nashtaha unmoolitaha syat. You should know what is sakarmaka, what is akarmaka. Okay, the technical definition of sakarmaka and akarmaka. Kaha sakarmaka dhatuhu, kaha akarmaka dhatuhu. Yes, yatra phalam vyaparaha ityanayohu vayadhikaranyam. Saha dhatuhu sakarmaka. Okay, so the shastric definition of sakarmakatva is that dhatu. So dhatu has the phala and vyapara as its meanings. So where the phala and vyapara exist in two different adhikaranas, we call it as sakarmaka. Udaharanartham, pachakaha odanam pachati iti vakyam. Tatra pach dhatuhu sakarmakaha ityuchyate. Katham iti chet, pach dhatvarthaha phalam nama viklittihi. Viklittihi odane drishyate, odanaha karma. Dhatvartha vyaparaha viklityanukulaha vyaparastu pachake drishyate. So phalam odane vyaparaha pachake. Ityevam phalavyaparayoho vayadhikaranyam drishyate. Ataha pachadhatuhu sakarmakaha. Evameva balakaha phalam khadati ityasti. Khad dhatuhu. Tatra galabiladha sanyogaha khad dhatuhu phalam. Tattu phale. I mean, the first phala is the paribhashika phala. So, galavilala sammyogahatu phale, athava annam khadati chet, anne drishyate. Vyaparastu, tasya mukhe sthapana charvanadi vyaparastu balake drishyate. Evam, phala vyaparayohu vayadhikaranyat khadadhatuhu sakarmakaha. Karoti, kumbhakaraha ghatam karoti. Tatra kr dhatuhu. Utpattihi phalam. Utpattihi ghate drishyate. So the act of being, springing into existence. Vyaparastu kumbhakare. Evam phalavyaparayoho vayadhikaranyat krudhatuhu sakarmakaha. Akarmaka dhatushutu phalam vyaparascha ubhayam samanadhikaranam. Arthat both phala and vyapara reside in the same adhikarana. Phalavyaparayoho samanadhikaranye akarmakatvam ityuchyate. Manushyaha jivati viprayogaha. Jiva pranadharane iti dhatuhu. Tatra pranadharanam phalam tadanukulaha vyaparaha. So to hold life is the phala and all the internal mechanisms which operate to keep him alive. Ubhayam api manushya eva drishyate. So there are no two separate adhikaranas for pranadharana and the vyapara. Ataha jivadhatuhu akarmakaha. Vardhate, sasyam vardhate iti prayogaha. Tatra vridh dhatuhu. Vardhanam, so the growing, the effect of growing, say increasing in size, becoming taller or fatter or growing more leaves, etc. Tadanukula vyaparaha and the vyapara, say maybe division of cells, which is required for vardhana. Ubhayam api sasye eva drishyate. So both of them are seen in the sasya itself. Ataha vardhate iti akarmakaha dhatuhu. Ghataha asti asudhatuhu satta. So the phala is satta existence. Tadanukula vyaparaha and the vyapara which helps it to maintain its existence. So both of them are in the ghata. Evam phalavyaparayohu samanadhikaranye akarmakatvam vayadhikaranye sakarmakatvam iti sakarmaka akarmaka vyavastha. Okay, so this is the vyavastha which we normally see. Now, yadi vyaparaha avachyaha tarhi ayam vibhagaha kartum ashakyaha. Swartha phalavyadhikarana vyapara vachakatvam. Swartha vyapara vyadhikarana phalavachakatvam va sakarmakatvam bhavanayaha avachyatvam antarena asambhavi. So the definition itself. So phalavyadhikarana vyapara vachakatvam. So having vyapara different from the phala. Not just any phala different from any vyapara. Okay? It has to be swartha. So vyapara, because I mean the phala of pachidhatu is vyadhikarana from the vyapara of maybe vridhidhatu. Okay. So that is why we need that swartha. Swartham swarthaha yat phalam swam nama dhatuhu tena dhatuna yaha arthaha phalarupaha arthaha uchyate तादृश फल व्यधिकरण व्यापारस्य वाचकत्वं तस्मिन् धातौ एव अस्ति, अतः तस्य धातोः सकर्मकत्वम्। अथवा स्वं नाम धातुः, स्वार्थः धात्वर्थः व्यापारः, स्वार्थः यः व्यापारः तद्व्यधिकरण फलवाचकत्वं वा सकर्मकत्वम्। ओके, सो दिस् इस् द डेफिनेशन् आफ् सकर्मकत्व। सो दट् द धातु एक्स्प्रेसेस् अ व्यापार विच् इस् existent in a different adhikarana than the phala expressed by the same dhatu. Okay, I mean, if you don't put that swartha, if you just say phala vyadhikarana vyapara vachakatvam, so some phala is always vyadhikarana from some vyapara, so all dhatus will be sakarmaka. Ataha swartha iti yojaniyam eva. Tatha sati phalam api dhatvartha vyaparo api dhatvartha ubhayoho vachyatvam siddhyatyeva. स्वार्थ फल व्यधिकरण व्यापार वाचकत्वं, स्वार्थ व्यापार व्यधिकरण फलवाचकत्वं वा सकर्मकत्वं भावनायाः वाच्यत्वमंतरेण। सो अनलेस भावना इज वाच्य, यू कैन नॉट, इट इज इम्पॉसिबल टू फ्रेम सच अ डेफिनेशन ऑफ व्हाट इज सकर्मक। सो यू कैन नॉट इवन डिफाइन व्हाट इज सकर्मक अनलेस भावना इज वाच्य। अन्यतमत्वं तत्त्वं इति चेन्न एकस्यैव अर्थभेदेन अकर्मकत्व सकर्मकत्व दर्शनात्। अन्यतमत्वं तत्त्वं, सो दिस् इस् वन् थिङ्ग् विच् शृङ्गग्राहितया, सो शृङ्गग्राहितया इस् समथिङ्ग् लैक् परिगणन, यु हाव् अ सेट् आफ् धातुस्, सो जस्ट् पायिण्ट् टु ईच् आफ् देम्, सो इट् इस् शृङ्गग्राहि न्याय इस् अगेन् अ न्याय विच् वि यूस्। So when you cannot define a common feature between, say there are a set of cows, you want to select some cows, not based on any common attribute, you just randomly want to select some. So Shringa Grahita, yeah, you just hold each one's horn and say, okay, this and this and this, I want these. Okay, so Shringa Grahita ya sakarmakatvam, arthat सकर्मकत्वेन अभिमताः यावन्तः धातवः, ये ये धातवः सकर्मकत्वेन इष्टाः तावदन्यतमत्वं सकर्मकत्वम्। जस्ट् बीङ्ग् वन् आफ् दोस्, यू जस्ट् डिवैड् धातुस् इन् टु टु क्लासस् एण्ड् से ओके, इफ् इट् बिलाङ्ग्स् टु दिस् क्लास् इट् इस् सकर्मक, इफ् इट् बिलाङ्ग्स् टु द अदर् क्लास् इट् इस् अकर्मक, परिगणनेन, यथा अस्माभिः इट् अनिट् इत्यादि क्रियते। ऐ मीन् देर् आर् मेनी थिङ्ग्स् वित् वी हेव् टु डू बै परिगणन। सो एवं शृङ्गग्राहितया कुर्मः अन्यतमत्वं, सो ये ये सकर्मकत्वेन अभिमताः तदन्यतमत्वं सकर्मकत्वम् इति वदामः। वि जस्ट् मेक् इट् इन् टु टु क्लासस् इति चेत् न, किमर्थम्? एकस्यैव अर्थभेदेन अकर्मकत्व सकर्मकत्व दर्शनात्। सो द सेम् धातु डिपेण्डिङ्ग् आन् द मीनिङ्ग् could be sakarmaka or akarmaka, so it has to be defined based on the meaning, based on the artha, and not just based on the dhatu. You cannot simply say these dhatus are sakarmakas or these dhatus are akarmakas. Yatha ekasyaiva dhatoh artha bhedat ubhayatvam kadachit sakarmakatvam kadachit akarmakatvam, yatha vah dhatuh nadi vahati iti prayoge tasya dhatoh akarmakatvam, भारं वहति इति प्रयोगे तु सकर्मकत्वम्। अतः वह धातुः कस्मिन् गणे भवेत्? सो इफ् यु पुट् इट् इन् टु वन् आफ् द गणस्, यु केनाट् हाव् द अदर् कैण्ड् आफ् प्रयोग। अतः एकस्यैव अर्थभेदेन अकर्मकत्व सकर्मकत्व दर्शनात्, सो वी केनाट् एम्प्लाय् दिस् शृङ्गग्राहितया सकर्मकत्व निर्देशः। सो यु विल् हाव् टु डिफैन् सकर्मकत्व बेस्ड् आन् द मीनिङ्ग् एण्ड् दट् इस् नाट् पासिबल् unless bhavana is vachya. Astu mastu sakarmakatva akarmakatva vibhagah, kimartham avashyakam, why do we even need the sakarmakatva akarmakatva vibhaga iti chet agre uchyate kutra. Okay, I thought it came here. Shastreshu sutreshu drishyate bahutra sakarmakatvam akarmakatvam va ashritya karyani kriyante vishishya pada nirdeshah अकर्मकाच्च इत्यनेन अकर्मकात् धातोः आत्मनेपदं बहुत्र विधीयते। देर् आर् टु आर् त्री सूत्रस् विच् डिफैन् आत्मनेपद वेन् द धातु इस् अकर्मक, एण्ड् सिमिलर्ली द पदभेद इस् सीन् इवन् वेन् इट् इस् अकर्मक। लक् कर्मणि च भावे च इत्यनेनापि कर्मणि कर्तरि इत्यादिषु भावे च अकर्मकेभ्यः, अकर्मकेभ्यः धातुभ्यः भावे कर्तरि भवन्ति, परिशेषात् सकर्मकेभ्यः कर्मणि कर्तरि इत्येवम् आवश्यकमेव. सो द सकर्मक अकर्मक विभाग इस् आवश्यक एण्ड् यु केनाट् मेक् दट् विभाग अन्लेस् भावना इस् वाच्य. तदेतद् अभिसन्धाय आह कृण्य इति. इदानीं कारिकायाः द्वितीयार्धः व्याख्यायते. कृण्यो कर्मकतापत्तेः न हि यत्नोऽर्थ इष्यते. कृण्यः अकर्मकतापत्तेः, यत्नः अर्थः नेष्यते. अयं भावः व्यापार अवाच्यत्वपक्षे. यदि व्यापारः न वाच्यः तर्हि फलमात्रमर्थः इति फलितम्. एक्स्क्यूस् मी, ऐल् बी बैक् जस्ट् वन् मोमेण्ट्. अयं भावः व्यापार अवाच्यत्वपक्षे फलमात्रम् अर्थः इति फलितम्. अर्थात् धात्वर्थः केवलं फलं, व्यापारः न उच्यते, धात्वर्थः फलमेव. तथा च करोति इत्यादौ यत्नप्रतीतेः तन्मात्रं वाच्यम् अभ्युपेयम्. सो करोति इति यत्र प्रयोगः तत्र यत्नप्रतीतेः, यत्नः स्वकृतिः और् वाट् यु काल् द आत्मनिष्ठव्यापारः, तस्य प्रतीतिस्तु अस्ति. अतः तन्मात्रं वाच्यं, केवलं फलत्वेन यत्नः. सो द फल आफ् करोति विल् बि यत्न, एफर्ट्. वाच्यम् अभ्युपेयं. तथा च यति प्रयत्ने इतिवत् फलस्थानीय यत्नवाचकत्व अविशेषात् अकर्मकतापत्तिः उक्तरीत्या दुर्वारा. वि हाव् द धातु यतते. प्रयत्नं करोति इत्यर्थे यतते. तत्र प्रयत्नं करोति, सो प्रयत्न, एफर्ट् इट्सेल्फ् इस् द फल. सः धातुः फलस्थानीय यत्नवाचकत्वात्, सो देर् द एफर्ट् इट्सेल्फ् इस् द फल. सो द एफर्ट् इन् यतते, there is no other phala siddhi. Okay, so in all actions you achieve some phala, whereas in trying there is no phala. The effort itself is the phala, right? So when you say he tries, the yatna itself is the phala. Phalasthaniya yatna vachakatva avisheshat. So yadi kru dhatorapi ಫಲಮಾತ್ರಂ ಅರ್ಥಃ ಅರ್ಥಾತ್ ಯತ್ನಮಾತ್ರಂ ಅರ್ಥಃ ತರ್ಹಿ ತದವಿಶೇಷಾತ್ ಅಕರ್ಮಕತಾಪತ್ತಿಃ ಉಕ್ತರೀತ್ಯ ದುರ್ವಾರ. ಸೊ ಆಸ್ ಇಟ್ ವಾಸ್ ಟೋಲ್ಡ್ ಜಸ್ಟ್ ನೌ, ಯದಿ ವ್ಯಾಪಾರಸ್ಯ ವಾಚಕತ್ವಂ ನಾಸ್ತಿ ತರ್ಹಿ ಸಕರ್ಮಕತ್ವ ಅಕರ್ಮಕತ್ವ ಭೇದಃ ನಿರ್ವಕ್ತುಂ ಅಶಕ್ಯಃ. ಸಕರ್ಮಕತ್ವಂ ನಾಮ ಕಿಂ ಇತಿ ಲಕ್ಷಯಿತುಮೇವ ನ ಶಕ್ಯತೆ. ಫಲಮಾತ್ರಂ ಅರ್ಥಃ ಅತಃ ಯಥಾ ಯತಿ ಪ್ರಯತ್ನೆ ಇತಿ ಧಾತುಃ ಅಕರ್ಮಕಃ ಏವಮೇವ ಕೃತಿರೂಪಾಭಾವನಾ ವಾ ವ್ಯಾಪಾರ ರೂಪಾಭಾವನಾ ವಾ ಅವಾಚ್ಯ ಇತಿ ಪ್ರಾಭಾಕರಮತೆ. ಓಕೆ, ಸೊ ದಿಸ್ ಇಸ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ದ ಪ್ರಾಭಾಕರಸ್ ಆರ್ ದ ಮೀಮಾಂಸಕಸ್. ಸೊ ಯತತೆ ಇತಿ ಯಥಾ ಅಕರ್ಮಕಃ ತಥಾ ಕರೋತಿ ಇತ್ಯಪಿ ಅಕರ್ಮಕಃ ಸ್ಯಾತ್. ಅತಏವ ಕೃಣ್ಯಃ ಅಕರ್ಮಕತಾಪತ್ತೇಹೇ ನಹಿ ಯತ್ನೋರ್ಥ ಇಷ್ಯತೆ ತಥಾ ಚ ನಹಿ ಯತ್ನಃ ಇತ್ಯತ್ರ ಫಲಸ್ಥಾನೀಯತ್ವೇನ ಇತಿ ಶೇಷಃ. ಯತ್ನಃ ಅರ್ಥಃ ನೇಷ್ಯತೆ ಇತ್ಯುಕ್ತೆ ಕೃಧಾತೋಃ ಯತ್ನಃ ಅರ್ಥಃ ನ ಇತಿ ನ. ಇಟ್ ಇಸ್ ನಾಟ್ ದಟ್ ಕೃಧಾತು ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಯತ್ನ ಆಸ್ ಇಟ್ಸ್ ಮೀನಿಂಗ್. ಯತ್ನ ಮಾತ್ರಂ ಫಲತ್ವೇನ ಅರ್ಥಃ ನ ಫಲಸ್ಥಾನೀಯತ್ವೇನ. ಯತ್ನಃ ಫಲಸ್ಥಾನೀಯತ್ವೇನ ನೇಷ್ಯತೆ ಅಪಿತು ವ್ಯಾಪಾರಸ್ಥಾನೀಯತ್ವೇನ. ಅತಃ ಕೃಧಾತೋಃ ಯತ್ನಃ ವ್ಯಾಪಾರಃ ವಾಚ್ಯೇವ ಇತ್ಯುಚ್ಯತೆ. ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್, ಯು ಕೆನಾಟ್ ಸೇ ದಟ್ ಭಾವನಾ ಇಸ್ ಅವಾಚ್ಯ. ಭಾವನಾಯಾಹ ವಾಚ್ಯತ್ವಂ ಅಂಗೀಕರ್ತವ್ಯಂ ಅನ್ಯಥಾ ಕೃಧಾತೋಃ ಅಕರ್ಮಕತ್ವಾಪತ್ತಿಃ. ಕೃಣ್ಯಃ ಇತಿ ಧಾತುಮಾತ್ರೋಪಲಕ್ಷಣಂ ನ ಕೇವಲಂ ಕೃಧಾತೋಃ ಸರ್ವೇಷಾಮಪಿ ಧಾತೂನಾಂ ಧಾತುಮಾತ್ರ ಉಪಲಕ್ಷಣಂ. ಸೊ ಅತ್ರ ಸರ್ವತ್ರ ಮಾತ್ರಂ ಕಾರ್ತ್ಸ್ನ್ಯೇ, ಕಾತ್ಸ್ಯಂ ನಾಮ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಂ ಉಪಲಕ್ಷಣಂ ಇತ್ಯರ್ಥಃ. ಕೃಣ್ಯಃ ಇತಿ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಮಪ್ಯುಪಲಕ್ಷಣಂ ಸರ್ವೇಷಾಮಪಿ ಅಕರ್ಮಕತಾ ಸಕರ್ಮಕತಾ ವಾ ಸ್ಯಾತ್ ಇತಿ ಭಾವಃ. ಸೊ ಅನ್ಲೆಸ್ ಯು ಅಕ್ಸೆಪ್ಟ್ ವ್ಯಾಪಾರ ಆಸ್ ವಾಚ್ಯ, ಆಲ್ ದ ಧಾತೂಸ್ ಹ್ಯಾವ್ ಟು ಬಿ ಕ್ಯಾಟಗರೈಸ್ ಈದರ್ ಆಸ್ ಅಕರ್ಮಕಸ್ ಆರ್ ಸಕರ್ಮಕಸ್. ಯು ಕೆನಾಟ್ ಮೇಕ್ ಅ ಡಿಸ್ಟಿಂಕ್ಷನ್ ಬಿಟ್ವೀನ್ ದೆಮ್ ವಿಥೌಟ್ ದ ವ್ಯಾಪಾರ ವಾಚ್ಯತ್ವ. ಯದಿ ಫಲವ್ಯಧಿಕರಣ ವ್ಯಾಪಾರ ವಾಚಕತ್ವಂ ಸಕರ್ಮಕತ್ವಂ ಇತ್ಯುಚ್ಯತೆ, ಸ್ವಾರ್ಥ ಫಲವ್ಯಧಿಕರಣ ವ್ಯಾಪಾರ ವಾಚಕತ್ವಂ, ತರ್ಹಿ ತದಭಾವೇನ ವ್ಯಾಪಾರ ವಾಚಕತ್ವಂ ತು ನಾಸ್ತ್ಯೇವ. ಅತಃ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಂ ಅಕರ್ಮಕತ್ವಮೇವ ಸ್ಯಾತ್. ಅಥವಾ ಫಲವಾಚಿತ್ವಂ ಸಕರ್ಮಕತ್ವಂ, ಕೇವಲಂ ಫಲವಾಚಿತ್ವಂ ಸಕರ್ಮಕತ್ವಂ ಇತಿ ಯದಿ ಆಶ್ರಿಯತೆ ತರ್ಹಿ ಸರ್ವೇಷಾಮಪಿ ಧಾತೂನಾಂ ಸಕರ್ಮಕತ್ವಂ. ಸೊ ಈದರ್ ಡೆಫಿನೇಷನ್ ವಿಲ್ ನಾಟ್ ವರ್ಕ್, ಬಿಕಾಸ್ ಇಫ್ ಯು ಟೇಕ್ ಓನ್ಲಿ ಫಲ ಆಸ್ ವಾಚ್ಯ ಸರ್ವೇ ಧಾತವಃ ಸಕರ್ಮಕಃ ಅಥವಾ ಸರ್ವೇ ಧಾತವಃ ಅಕರ್ಮಕಃ ಸ್ಯುಃ. ಸಕರ್ಮಕತ್ವ ಅಕರ್ಮಕತ್ವ ವಿಭಾಗಸ್ಯ ಉಚ್ಛೇದಃ ಸ್ಯಾತ್. ಸಚ ವಿಭಾಗ ಇಷ್ಯತೆ ಯತೋಹಿ ಶಾಸ್ತ್ರೇ ಏವ ಉದಶ್ಚರ ಸಕರ್ಮಕಾತ್ ಅಕರ್ಮಕಾತ್ ಇತ್ಯೇವಂ ಉಭಯವಿಧೋಪಿ ನಿರ್ದೇಶಃ ಪಾಣಿನಿನೈವ ಕೃತಃ. ಅತಃ ಸಕರ್ಮಕತ್ವ ಸಕರ್ಮಕ ಅಕರ್ಮಕ ವಿಭಾಗಃ ಇಷ್ಟಃ ತತ್ತು ಭಾವನಾಯಾಹ ಅಥವಾ ವ್ಯಾಪಾರಸ್ಯ ವಾಚ್ಯತ್ವಂ ವಿನಾ ನ ಸಿದ್ಧ್ಯತಿ ಇತ್ಯೇವಂ ಮತದ್ವಯಮಪಿ ನಿರಾಕೃತಂ. ಸೊ ಒನ್ ಥಿಂಗ್ ಹೀಸ್ ಪ್ರೂವ್ಡ್ ದಟ್ ಭಾವನಾ ಈಸ್ ವಾಚ್ಯ. And the second, all kinds of bhavana or vyapara, including kriti and also phutkaradi, are vachya. Natu kevalam kritihi. Iti dvayam api sadhitam. Athava. So Kaundabhatta offers an alternate explanation for the second half. Vyaparo bhavana ityardhena vyaparasya vachyatvam prasadhya. Vyaparo bhavana saivotpadana saivachakriya. ಇತಿ ಕಾರಿಕಾಯಾಹ ಪೂರ್ವಾರ್ಧೇನ ವ್ಯಾಪಾರಸ್ಯ ವಾಚ್ಯತ್ವಂ ಸಾಧಿತಂ. ಸರ್ವವಿಧಸ್ಯಾಪಿ ವ್ಯಾಪಾರಸ್ಯ ಕ್ರಿಯಾ ಇತ್ಯುಕ್ತಾಯಾಹ ಕೃತೇಹ ತಥಾ ಅನ್ಯೇಷಾಂ ಸರ್ವೇಷಾಮಪಿ ವ್ಯಾಪಾರಾಣಾಂ ವಾಚ್ಯತ್ವಂ ಅಸ್ತಿ ಇತಿ ಸಾಧಯಿತ್ವಾ ಫಲಾಂಶಸ್ಯಾಪಿ ತತ್ ಸಾಧಯನ್. ಫಲಂ ಧಾತ್ವರ್ಥಃ ಇತ್ಯಪಿ ಸಾಧನೀಯಂ ಫಲವ್ಯಾಪಾರಯೋರ್ಧಾತುಃ ಇತಿ ಪ್ರತಿಜ್ಞಾತತ್ವಾತ್ ತರ್ಹಿ ಫಲಾಂಶಸ್ಯಾಪಿ ತತ್ ಸಾಧಯನ್ ನೈಯಾಯಿಕಾಭ್ಯುಪಗತಂ ಜಾನಾತಿ ಕರೋತ್ಯಾದೇಹ ಕೇವಲ ಜ್ಞಾನ ಯತ್ನಾದಿ ಕ್ರಿಯಾಮಾತ್ರ ವಾಚಿತ್ವಂ ದೂಷಯತಿ. ನೌ ದೇರ್ ಆರ್ ಸಮ್ ದೇರ್ ಆರ್ ನೈಯಾಯಿಕಸ್ ಹು ಹೋಲ್ಡ್ ಅ ಟೋಟಲಿ ಆಪೋಸಿಟ್ ವ್ಯೂ मीमांसकानां मते लिंग भिन्न स्थले भावना अवाच्य इति वदन्ति, अर्थात् फलमात्रं वाच्यं भावना अवाच्य। नैयायिकास्तु जानाति करोति इत्यादिषु धातुषु केवल ज्ञान यत्नादि क्रिया मात्र वाचित्वं, दे से फॉर सर्टन क्रियास लाइक जानाति एंड करोति, क्रिया मात्र वाचकत्वं फलमेव नोच्यते, केवलं व्यापारः उच्यते इति वदन्ति। नैयायिकाभ्युपगतं जानाति करोत्यादेः केवल ज्ञान यत्नादि क्रिया मात्र वाचित्वं दूषयति कृण्य इति। सो ही सेज द सेकंड हाफ दट इज क्रियो कर्मकतापत्तेर नहि यत्नोर्थैष्यते इत्यत्र द्वेधा व्याख्यानं शक्यं। पूर्वोक्तं यत्नः फलस्थानीयत्वेन नेष्यते, अर्थात् व्यापारस्यापि वाच्यत्वम् अपेक्षितम् इति व्यापारस्य वाच्यत्व साधनार्थम् उपयोक्तुं शक्यम्, अथवा फलस्यापि वाच्यत्वम् आवश्यकम् इति फलस्य वाच्यत्वं साधयितुमपि अयमेवार्थः उपयोक्तुं शक्यते। कथम्? अयं भावः फलांशस्य अवाच्यत्वे व्यापार एव धात्वर्थः स्यात्। सो इफ फल इज अवाच्य देन ओनली व्यापार विल बी धात्वर्थ। अगेन द सेम प्रॉब्लम, आई मीन अनलेस यू हैव फल एंड व्यापार सेपरेटली यू कैनॉट सेपरेट सकर्मक एंड अकर्मक विथ even if you have only phala or if you have only vyapara, you cannot define what is sakarmaka and what is akarmaka. Tatha cha swartha phala vyadhikarana vyapara vachitvadi roopa sakarmakatvochheda pattihi. Ataha vyapara phala yohu ubhayohu vachakatve eva ayam vibhagaha pradarshayitum shakyaha. So phalam avachyam chedapi vibhagaha na shakyate, vyaparasya avachyatvepi na shakyate. नच कृण्यादौ सकर्मकत्व व्यवहारो भाक्तः इति नैयायिकोक्तं युक्तम्। सो भाक्तः नाम लाक्षणिकः, सो लक्षणा इत्यस्यैव भाक्तं भक्तिः इत्यपि व्यवहारः दृश्यते। सो भाक्तं नाम लाक्षणिकम् इत्यर्थः। सो इट्स वन फेवरेट टूल ऑफ नैयायिकास एवरीवेयर। सकर्मकत्व व्यवहारः लाक्षणिकः यद्यपि यत्नमात्रार्थकत्वं, सो नैयायिकानां मते सर्वेषु धातुषु फलव्यापारयोः वाचकत्वम् अङ्गीकुर्वन्ति, तथा च स्वार्थफलव्यधिकरणव्यापारवाचकत्वम् इत्यादि लक्षणं सङ्गच्छते। कृ धातोः विषये तु नास्ति फलं, तथापि लाक्षणिकः व्यवहारः इति कृत्वा सकर्मकत्वव्यवहारः इति वदन्ति, तत्तु न युक्तम्। न च कृण्यादौ सकर्मकत्वव्यवहारः भाक्तः इति नैयायिकोक्तं युक्तम्। व्यवहारस्य भाक्तत्वेपि कर्मणि लकार असम्भवात्। व्यवहारः टु जस्ट् काल् इट् सकर्मक आर् अकर्मक यु केन् यूस् लक्षण। व्यवहारस्य भाक्तत्वेपि सकर्मकत्वव्यवहारः लाक्षणिकः भवितुमर्हति, किन्तु तदाश्रित्य कार्याणि न भवन्ति, कर्मणि लकार असम्भवात्। अत्र एकं दृष्टान्तं प्रदर्शयति, नहि तीरे गङ्गापदस्य भाक्तत्वेपि, द स्टैंडर्ड एग्जाम्पल फॉर लक्षण, गङ्गायां घोषः, गङ्गापदस्य तीरे लक्षण, गङ्गातीरे घोषः इत्यर्थः। एवं तीरे गङ्गापदस्य भाक्तत्वेपि, अर्थात् गङ्गाशब्दस्य तीरे लाक्षणिकः अर्थः तीरम् इत्युच्यते, अस्तु तीरस्य लाक्षणिकत्वं स्वीकर्तुं शक्यते, किन्तु तेन स्नानादिकार्यं कर्तुं नहि शक्यम्। किन्तु तीरेण स्नानं कर्तुं, तीरे स्नातुं शक्यते वा? न शक्यते। तदर्थं तु मुख्यः यः अर्थः गङ्गाप्रवाहः, स एव आवश्यको भवति। अतः व्यवहारः गङ्गायां घोषः इति व्यवहारे लक्षणया तीरार्थकत्वे स्वीकृते अपि मुख्यार्थस्य यत् कार्यं स्नानादिकरणत्वं, तत्तु लाक्षणिके अर्थे न सम्भवति। एवमेव कृञ्धातोः सकर्मकत्वं लाक्षणिकम् इति व्यवहारे कृते अपि कर्मणि लकार असम्भवात्। मुख्यार्थम् आश्रित्य लकारादिविधानं यत् क्रियते, तत्तु वस्तुतः सकर्मकत्वं विना न शक्यते, तच्च सकर्मकत्वं फलस्य वाचकत्वं विना न सम्भवति। एवञ्च नहि यत्नः इत्यत्र यत्नमात्रम् यत्नमात्रं नाम व्यापारमात्रम् इत्यर्थः. कृण्यः अकर्मकतापत्तेः नहि यत्नोऽर्थ इष्यते नाम यत्नमात्रं व्यापारमात्रम् इत्यर्थः नेष्यते अकर्मकतापत्तेः. फलस्य अवाच्यत्वे अकर्मकत्व सकर्मकत्व विभागः न सिध्यति इत्यतः फलस्यापि वाचकत्वम् आवश्यकम् व्यापारस्यापि वाचकत्वम् आवश्यकम् इत्येवम् अस्याः कारिकायाः व्याख्यानम् समाप्तम्. व्यापारो भावना सैवोत्पादना सैव च क्रिया. भावना उत्पादना क्रिया इत्यादिभिः पदैः उच्यमानः सर्वविधोऽपि व्यापारपदवाच्यः स च धातुना वाच्यः वाच्यार्थः न तु अवाच्यः. कृण्यः अकर्मकतापत्तेः नहि यत्नोऽर्थ इष्यते किञ्च फलव्यापारयोः उभयोः वाचकत्वे एव सकर्मकत्व अकर्मकत्व विभागः सिध्यति. भावना अवाच्य इति वदतां मीमांसकानां मते वा जानाति करोत्यादिषु लक व्यापारमात्रं वाच्यं फलम् अवाच्यम् इति वदतां नैयायिकानां मते वा सकर्मकत्व अकर्मकत्व विभागः न सिध्यति. सो टु एस्टाब्लिश् द डिस्टिङ्क्षन् बिट्वीन् सकर्मक एण्ड् अकर्मक यु हाव् टु एक्सेप्ट् दट् बोत् फल एण्ड् व्यापार आर् वाच्य फार् आल् धातूस् इन् आल् लकारस्. स एव वैयाकरण सिद्धान्तः. किञ्च तत्र व्यापारशब्देन भूत्कारादि शरीरनिष्ठः व्यापारः कृतिरूपः आत्मनिष्ठः व्यापारः इति सर्वोऽपि गृह्यते इत्यपि वैयाकरण सिद्धान्तः. एनी क्वेश्चन्स्? So we have finished the fifth karika. Vyaparo bhavana saivotpadana saivachakriya. Snyo karma kata patter nahi atnortha ishyate. Karikaha pachamaha. Phanibhashita bhashyabdhe shabda kaustubha udhrataha. तत्र निर्णीत एवार्थ संक्षेपेणेह कथ्यते. फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः. फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्. फलव्यापारयोस्तत्र फले तङ्यक्षिणादयः. व्यापारे शप्श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम्. उत्सर्गोऽयं कर्मकर्तृविषयादव्यपर्ययात्. तस्माद्यथोचितं ज्ञेयं द्योतकत्वन्यथागमम्. व्यापारो भावना सैवोत्पादना सैव च क्रिया. कृण्यो कर्मकतापत्तेर्नहि यत्नोऽर्थ इष्यते किन्तु उत्पादनमेवातः कर्म वत्स्याद्यगाद्यपि. कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव. निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्रव्यवस्थितः. तस्मात् करोतिर्धातोऽस्याद्व्याख्यानन्नत्वसौ तिङाम्. पक्ववान् कृतवान् पाकम् किङ्कृतम् पक्वमित्यपि. किं कार्यम् पचनीयम् चेत्यादि दृष्टम् हि कृत्स्वपि. किञ्चक्रिया वाचकताम् विना धातुत्वमेव न. सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्. धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च क्रियार्थता. अन्योन्य संशय स्पष्टस्तस्मादस्तु यथाकरम्. अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना. अन्यत्राशेषभावात्तु सा तथा न प्रकाशते. फलव्यापारयोरेकनिष्ठतायामकर्मकः. धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः. आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता. प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः. साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना. सिद्धभावस्तु यस्तस्याः स घन्यादिनिबन्धनः. सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोऽवतिः. धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनन्य. तथा यस्य च भावेन षष्ठी चेत्युदितम् द्वयम्. साधुत्वमष्टकस्यास्य क्रियैवावधार्यताम्. यदि पक्षेऽपि वत्यर्थः कारकञ्चनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना. अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः. क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता. कृत्वोऽर्थाः ಮುನ್ವತ್ಸ್ಯುರಿತಿ ಚೇತ್ಸಂತಿ ಕ್ವಚಿತ್ ಅತಿಪ್ರಸಂಗೋ ನೋದ್ಭಾವ್ಯೋಭಿಧಾನಸ್ಯ ಸಮಾಶ್ರಯಾತ್ ಭೇದ್ಯಭೇದಕ ಸಂಬಂಧೋಪಾಧಿ ಭೇದ ನಿಬಂಧನಂ ಸಾಧುತ್ವಂ ತದಭಾವೇಪಿ ಬೋಧೋ ನೇಹ ನಿವಾದ್ಯತೆ ಶ್ರೀಲಕ್ಷ್ಮೀ ರಮಣಂ ನೌಮಿ ಗೌರೀ ರಮಣ ರೂಪಿಣಂ ಸ್ಫೋಟ ರೂಪಂ ಯತಃ ಸರ್ವಂ ಜಗದೇತದ್ವಿವರ್ತತೆ. So the next class is on Thursday, which is 2nd March.